इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अमेरिकायाः त्रिदिवसीयायाः सफलयात्रायाः अनन्तरं ह्यः नवदिल्लीं प्रत्यागतवान्। यात्रावधौ तेन नैकैः नेतृभिः समं द्विपक्षीया चर्चा समनुष्ठिता। सः क्वाडनेतृणां सम्मेलनेन सार्धं भारतामेरिका देशयोः समुदायस्य कार्यक्रमेऽपि सम्मिलितो अभवत्। तेन प्रमुख अमेरिकादेशीयैः उद्यमेभिः सममपि चर्चा कृता। अस्मिन् यात्रावसरे तेन संयुक्तराष्ट्रमहासभायाः शिखरसम्मेलनमपि सम्बोधितम्। जम्मूकश्मीरराज्ये अद्य विधानसभानिर्वाचनस्य द्वितीयचरणीयमतदानस्य कृते सर्वाः सज्जताः सम्पन्नाः। अस्मिन् चरणे षड्विंशतिः विधानसभाक्षेत्रेषु मतदानं सम्पाद्यते। मतदानम् अद्य प्रातः सप्तवादनतः सायं षड्वादनं यावत् भविष्यति। अस्मिन् चरणे स्वतन्त्रं निष्पक्षं सुगमं च मतदानं सुनिश्चेतुं सर्वाः व्यवस्थाः च कृताः सन्ति। अस्य चरणस्य प्रमुखप्रत्याशीषु नेशनल कॉन्फ्रेंस दलस्य नेता पूर्वमुख्यमन्त्री च ओमार अब्दुल्लाह, कांग्रेसदलीयः प्रदेशप्रमुखः तारिक हामिद कराहः, जम्मू कश्मीरस्य भाजपेति दलस्य अध्यक्षः रविन्द्र रैना, अपनी पार्टी इत्यस्य दलस्य अध्यक्षः अल्ताफ बुखारी च सन्ति। निर्वाचनायोगः केन्द्रराज्यानि झारखण्डस्य प्रवर्तन संस्थाः च स्पष्टीकृतवान् यत् झारखण्डराज्ये आगामिषु विधानसभानिर्वाचनेषु धनशक्तिप्रयोगस्य विषये शून्यसहिष्णुता भविष्यति इति। मुख्य निर्वाचनायुक्तस्य राजीवकुमारस्य नेतृत्वे निर्वाचनायोगस्य दलमेकं राज्ये निर्वाचनस्य सज्जतायाः समीक्षाम् अकरोत्। राजनीतिकदलैः सुरक्षासेनाभिः अन्यैः सहभागिभिः सह च सभाम् अकरोत्। पश्चात् रांचीनगरे वार्ताहरैः सह वार्तालापं कुर्वन् श्रीकुमारः अवदत् यत् प्रलोभनमुक्तं निर्वाचनं सुनिश्चीकर्तुं सम्बद्ध अभिकरणानि निर्दिष्टानि सन्ति इति। सर्वोच्चन्यायालयः राज्यानि केन्द्रशासितप्रदेशान् च निर्दिष्टवान् यत् विद्यालयेषु बालानां सुरक्षा संरक्षा च केन्द्रस्य दिङ्निर्देशानामेव अन्तर्गतं भवेदिति। शीर्षन्यायालयेन राष्ट्रिय बालाधिकार संरक्षणायोगः राज्यैः केन्द्रशासितप्रदेशे च समन्वयं विधातुं दिङ्निर्देशानां कार्यान्वयनस्य निरीक्षणं च कर्तुम् आदिष्टः। न्यायमूर्तेः बी वी नागरत्ना इत्यस्य न्यायमूर्तेः एन कोटीश्वरसिंहस्य च संयुक्तपीठेन अभिव्यक्तं यत् विद्यालयेषु बालानां सुरक्षायाः संरक्षायाः च विषये दिङ्निर्देशाः अधिसूचिताः सन्ति इति। शीर्षन्यायालयस्य वक्तव्यमिदं महाराष्ट्रस्य बदलापुरं समेत्य केषुचित् विद्यालयेषु बालैः सह घटितानां यौवनोत्पीडन घटनानाम् अनन्तरं सर्वकारीयेतर संघटनद्वारा याचितावेदनस्य अन्तर्गतम् आगतम् अस्ति। उपराष्ट्रपतिः जगदीप धनखडः अद्य ग्रेटर नोएडा स्थले उत्तरप्रदेश अन्ताराष्ट्रिय व्यापार प्रदर्शनस्य द्वितीय संस्करणम् उद्घाटयिष्यति। अस्य पञ्चदिवसीय व्यापार प्रदर्शनस्य समापनं मासस्यास्य नवविंशतिः दिनांके भविष्यति। कार्यक्रमे एतस्मिन् उत्तरप्रदेशस्य संस्कृति व्यापारयोः प्रदर्शनं भविष्यति। सहभागी देशत्वेन वियतनामदेशोऽपि सम्मिलितो भविष्यति। अस्य प्रदर्शनस्य प्रथमसंस्करणस्य उद्घाटनं गतवर्षे राष्ट्रपतिना द्रौपदी मुर्मू वर्यया कृतम् आसीत्। क्रीडावार्तायां टेनिस प्रतिस्पर्धायां जीवन नेदुन चेझियान विजयसुन्दर प्रशान्तयोः भारतीय युगलं चीनदेशे हांगचौ टेनिस इत्येतस्याः प्रतिस्पर्धायाः पुरुषयुगलस्य उपाधिम् अधिगतवत् इति वार्ताः।